अस्तु, स्वागतम्. अस्माकं विषयः अस्ति सत्ता इति. तस्मात् पूर्वं सप्तपदार्थाः सन्ति विश्वे. प्रथमं द्रव्यं, गुणः, कर्म. एतेषां परिचयः अभवत् अस्माकं. तदनन्तरं जातिः इत्युक्ते किम् इति दृष्टवन्तः. समानानां धर्मः जातिः इति लक्षणवाक्यमपि दृष्टम् अस्माभिः. जातेः अधिकरणं द्रव्यं, गुणः वा कर्म इति. तदनन्तरम् एकस्मिन् पदार्थे इत्युक्ते द्रव्ये, गुणे वा कर्मणि एकाधिकजातयः सम्भव्यन्ते इत्यपि दृष्टम्. उदाहरणानि अपि दृष्टानि. यथा घटः इति स्वीकुर्मः चेत् घटे घटत्वम् इति अस्ति, घटत्वम् इति जातिः. घटः द्रव्यम् इति कृत्वा तस्मिन् द्रव्यत्वम् इति जातिः अपि वर्तते. घटः पार्थिवद्रव्यम् इति कृत्वा तस्मिन् पृथ्वीत्वम् अपि वर्तते. अतः तिस्रः जातयः सन्ति घटे. पुनः गुणः स्वीकुर्मश्चेत्, गुणः इति स्वीकुर्मश्चेत् कञ्चन गुणं स्वीकुर्मः. रसः इति गुणः, आम्लगुणः इति चेत् आम्लत्वम् इति जातिः आम्लगुणे वा आम्लरसे आम्लत्वम् इति जातिः. आम्लरसः तु गुणः अस्ति इति कृत्वा तस्मिन् गुणत्वम् अस्ति, तस्मिन् रसत्वम् अपि अस्ति. अतः तत्रापि तिस्रः जातयः सन्ति. कर्म, गमनक्रिया इति स्वीकुर्मश्चेत् तस्मिन् गमनत्वं.
भगिनी, रसत्वम्?
एकनिमिषं भगिनी, अहं सम्पूर्णं वदामि, तदनन्तरं पृच्छतु कृपया. गमनत्वम् इति क्रिया, तदनन्तरं गमनम् इति कर्म. कर्मविभागे अस्ति इति कृत्वा तस्मिन् कर्मत्वम् अपि अस्ति. अतः एकस्मिन् पदार्थे एकाधिकजातयः भवितुम् अर्हन्ति. अस्तु, आं भगिनी पृच्छतु कृपया.
रसत्वे रसे किं किम् अस्ति? रसत्वं,
हा, आम्लरसम् इति स्वीकुर्मश्चेत् आम्लरसः इति कृत्वा तस्मिन् आम्लत्वम् अस्ति. आम्लत्वं तु बहुषु वर्तते खलु, अतः आम्लजातिः इति उच्यन्ते. आम्लरसः तु रसः एव इति कृत्वा तस्मिन् रसत्वम् अस्ति. इतोपि गुणः इति कृत्वा पदार्थविभागे गुणः इति कृत्वा गुणत्वम् अपि अस्ति. गुणत्वजातिः अस्ति तस्मिन्. अस्तु, तदनन्तरं सत्ता इति जातिः अपि दृष्टा अस्माभिः. सत्ता तु द्रव्येषु, गुणेषु, कर्मसु अपि वर्तते. यदि मम पुरतः पञ्चपुस्तकानि, पञ्चरसाः, पञ्चगमनक्रियाः भवन्ति चेत् पञ्चादशसत्ताः वर्तन्ते. प्रत्येकस्मिन् सत्ता अस्ति, यतोहि द्रव्यं वा गुणः वा कर्म भवतु चेत् अवश्यं तस्मिन् सत्ता भवति एव. अतः सत्ता अधिकदेशजातिः इति वक्तुं शक्नुमः. इत्युक्ते अधिके देशे वर्तते. रसत्वम् इति वयं दृष्टवन्तः वा, आम्लत्वम्. आम्लत्वं तु आम्लपदार्थेषु एव वर्तते खलु, आम्लभक्ष्येषु एव वर्तते. परन्तु सत्ता सर्वत्र वर्तते. यदि यद्यपि आम्लपदार्थः नास्ति तत्रापि सत्ता वर्तते एव. केवलं निकषः भवतु यत् आम्लः क्षम्यतां तत् गुणः कर्म वा द्रव्यं भवतु तदेव निकषः. अस्तु, एतावत्पर्यन्तं प्रश्नः अस्ति वा? अन्य कोऽपि अस्ति वा?
नमस्ते भगिनि, विद्या अस्मि, अहं केवलं शृणोमि.
अस्तु भगिनि, अस्तु अस्तु, एतावत्पर्यन्तं प्रश्नः अस्ति वा? जातिविषये वा सत्ताविषये प्रश्नः अस्ति वा?
नास्ति भगिनि.
स्पष्टं खलु सर्वेषां?
भगिनि,
आम्
आम्
अवगच्छामि चेत् बट् सप्ता न अवगच्छामि.
सप्ता तु जातिः,
जातिः न.
रामनाथ महोदय वा?
आम्.
हा, भवतः प्रश्नः कः कृपया वदतु.
पुटसङ्ख्या अष्टे द्रव्यं गुणं कर्म सामान्ये विशेषे सम्भवाये अवर् अभावः दत्तं. सप्ता वेल्यूस् गिवन् अण्ड् हौ इस् डिफरेन्स्.
अस्तु अस्तु, उत्तमप्रश्नः एव. सत्ता तु सामान्यस्य विभागे अस्ति, सामान्ये अन्तर्भूता अस्ति सत्ता. तत्तु जातिः एव खलु? केवलं सत्तायाः विद्यमानं द्रव्येषु कर्मसु गुणेषु भवति. अतः सा जातिः अधिकदेश वृत्तत्वेन वर्तते. अधिकदेशेषु वर्तते, तदेव भेदः. परन्तु सा तु जातिः एव. अस्तु, इदानीं वयं पश्यामः सत्ता कुत्र कुत्र अस्ति, तस्य अधिकदेशवृत्तित्वं कथं भवति इति. अस्तु, आम् आम्. इदानीं पुष्पा भगिनी, एकनिमिषं कृपया म्यूट् कुर्वन्तु. यत्र ध्वनिः बहिष्टात् ध्वनिः आगच्छति कृपया म्यूट् कुर्वन्तु. धन्यवादः. अस्तु भगिनी, तत्र पुटसङ्ख्या अस्ति 13. ओ क्षम्यताम्, 11. एकादशे पृष्ठे स्मः वयं. तत्र अन्तिमपङ्क्तिं पठित्वा अग्रे पठतु भगिनि.
अहं पठामि?
आं, पुष्पा भगिनि.
जयन्ति भगिनि.
आम्
आम्, प्रिया अस्मि. पुनः एकवारं सत्ता विवरणोतु कृपया.
आम् अवश्यं भगिनि. भवती जातिः इत्युक्ते किम् इति जानाति खलु? समानानां धर्मः जातिः. तत्र वयं उदाहरणं, लौकिक उदाहरणमपि दृष्टवन्तः. यदा बालकः प्रथमवारं गां पश्यति, मात्रा उक्तं यत् इयं गौः इति, तस्य परिचयः कृतः मात्रा. तदनन्तरं पित्रा बालकः बहिः नीता अस्ति, तदा बालकः पुनः अन्यां गां दृष्ट्वा सः वदति इयं गौः इति. तर्हि बालकस्य परिचयः वा बालकस्य ज्ञानं बोधः कथं जातः अस्य विषये इति प्रश्ने कृते तयोः समानः धर्मः वर्तते. इत्युक्ते प्रथमवारं यदा बालकेन गाः दृष्टा तदा तस्य मनसि एकविधं ज्ञानं उत्पन्नं जातं. गाः इत्युक्ते तस्य चत्वारः पादाः, तस्य शृङ्गाः, शृङ्गद्वयं भवति, तस्य आकृतिः एतादृशी भवति इति सर्वं तस्य मनसि उत्पन्ना जाता. तदनन्तरं द्वितीयवारं यदा बालकेन दृष्टं गाः दृष्टा तदा सादृश्यस्य कारणेन ओ एतदपि प्रथमवारं यत् मया दृष्टा तादृशी एव भाति इति कृत्वा झटिति एव बालकेन परिचयः भवति. तदेव इत्युक्ते द्वितीये गवी किं वर्तते येन बालकस्य अभिज्ञानं जातम्. द्वितीये गवी जातिः इति कश्चन धर्मः वर्तते येन बालकस्य अभिज्ञानं जातम्. तदेव जातिः इति उच्यते.
तत्तु जातिः
घटत्वम् इति जातिः, सर्वेषु द्रव्येषु द्रव्यत्वम् इति जातिः, भिन्नेषु स्तरेषु भिन्नाः जातयः वर्तन्ते. परन्तु जातेः अधिकरणं तु केवलं द्रव्ये वा गुणे वा कर्मणि. स्पष्टं भगिनि?
आं भगिनि.
स्पष्टं वा?
स्पष्टं भगिनि.
अस्तु, तत्
पठामि.
ततः अग्रे सत्तायाः विषयः दृष्टः, तत् तदपि अवगच्छति वा?
सत्ता न वा अवगच्छति वा भगिनि?
अस्तु, कोऽपि वदति वा सत्ता इत्युक्ते? एकनिमिषं, सत्ता इत्युक्ते किम् इति उक्त्वा अग्रे पठतु भगिनि. सत्ता इत्युक्ते किं पुष्पा भगिनि?
जातिः, जातिः गुणे गुणत्वम् अस्ति, तत्तु जातिः तथैव.
परन्तु सत्ता सत्ता कथं भिद्यते?
सत्ता तु एकमनुष्यः तथैव द्वितीयमनुष्यः तु अस्ति.
सत्ताविषयः
तत्तु जाति जाति न जातिः.
हा, मम उदाहरणं स्मरति वा? इत्युक्ते पुस्तकानि, रसाः, गमनक्रियाः सन्ति चेत् तेषु सर्वेषु सत्ता वर्तते इति.
रसे आम्ररसे आम्रत्वम् अस्ति, रसत्वम् अस्ति, तत्तु गुणत्वम् अस्तु भगिनि. अवगच्छतु.
इत्युक्ते द्रव्येषु द्रव्यत्वम् इत्युक्ते पुस्तकेषु पुस्तकत्वम् इति जातिः, रसेषु रसत्वम् इति जातिः, गमनक्रियासु
गमनत्वम्
कर्मत्वं वा क्रियात्वम् इति जातिः. परन्तु सर्वेषु एका जातिः अस्ति, एका सामान्या जातिः अस्ति, सा सत्ता इति उच्यते. अग्रे पठेम भगिनि, प्रश्नः अस्ति चेत् अग्रे
भगिनि. किञ्चित्
किं पठामि भगिनि?
पृष्ठसङ्ख्या एकादश तत्र अन्तिमे अन्तिमं पङ्क्तिं पठतु कृपया.
अन्तिमपङ्क्ति अस्तु. तथा च सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति सा परा. न अस्ति अस्ति तथैव. एतत् सर्वे दृष्टं वयं दृष्टं द्रव्यत्वे गुणानि न द्रव्याणि सन् एकादशद्रव्याणि तत्तु द्रव्यत्वम् अस्ति. एकसहस्रगुणाः तत्तु गुणत्वम् अस्ति. पञ्चशतकर्माणि तु कर्मत्वम् अस्ति. तथैव ते सर्वे संयुक्ता एकसहस्र षट् षट्शत सत्ताः सन्ति. ये सर्वे सत्ताः द्रवत्वमपि सत्ताः, गुणत्वमपि सत्ताः, कर्मत्वम् अपि सत्ताः. ये सर्वेभ्यः सर्वेभ्यः अधिकानि इति अस्ति सत्तायाः सन्ति.
समीचीनं भगिनि. इत्युक्ते द्रव्यत्वस्य अपेक्षया सत्ता अधिकेषु वर्तते, गुणत्वस्य अपेक्षया सत्ता अधिकेषु वर्तते, कर्मत्वस्य अपेक्षया सत्ता अधिकेषु वर्तते. यतोहि सत्तायाः सङ्ख्या तु अधिका खलु इति कृत्वा सत्ता परा इति उच्यते. सर्वेषाम् उच्चस्तरे अस्ति इति कृत्वा सा परा. इत्युक्ते सत्तायाः अधिकरणानि अधिकानि एव खलु, अधिकतमम् अस्ति इति कृत्वा सा परा इति उच्यते. अग्रे पठतु भगिनि, कष्टः जातः.
अस्तु. द्रव्यत्यादीनां परा अपरत्व साधनम् इव एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणकरणानि पृथ्वीत्वापेक्षया अधिकानि. पृथ्वीत्वं पृथिव्याम् एव, द्रव्यत्वं तु जलादावपि अस्ति. अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते, पृथ्वीत्वापेक्षया परम् अधिकेषु वर्तते. एवमेव व्यस्तक्रमेण तत् न जानामि भगिनि. व्यस्तक्रमेण व्यस्त इति कृतं वदनं,
व्यस्तक्रमः इत्युक्ते पृथक् पृथक् पश्यामश्चेत्.
हा हा अस्तु. पृथक् पृथक् पश्यामः चेत् न्यूनानि अधिकरणानि चिन्तायां न्यूनाधिकरणचिन्तायां सत्तापेक्षया द्रव्यत्वस्य सत्तापेक्षया तत्तु तथैव न वदामि. एकनिमिषः भगिनि.
अस्तु अस्तु अस्तु, चिन्ता मास्तु. अहम् एकम् उदाहरणं वदामि. तम् अवलम्ब्य एतस्य परिच्छेदस्य प्रतिपादनं कुर्मः. अस्तु. गङ्गानदी यमुना नदी, ब्रह्मपुत्रा नदी, तिस्रः नद्यः सन्ति, गङ्गा, यमुना, ब्रह्मपुत्रा इति इत्यादयः नद्यः सन्ति. अस्तु, तेषु कीदृशी जातिः वर्तते?
नद्यत्वं,
नदीत्वम् इति जातिः,
नदीत्वं,
नदीत्वम् इति जातिः वर्तते. अस्तु, तेषु स तासु
जलत्वम् अस्ति.
जलं तु किम् अस्ति, कस्मिन् विभागे भवति?
द्रव्ये.
हा, जलद्रव्यं खलु, जलीयद्रव्यम्
अस्ति, जलीयद्रव्यं.
हा, परन्तु जलत्वं कुत्र कुत्र अस्ति? न केवलं नदीषु खलु, कुत्र अस्ति जलत्वम्? अन्यत्र कुत्र अस्ति? तैले, अस्तु, कूपीजले, समुद्रजले, घटजले अपि अस्ति खलु जलत्वम्. अतः जलत्वस्य वृत्तित्वम् अधिकेषु स्थानेषु भवति. नदीत्वस्य अपेक्षया जलत्वम् अधिकेषु स्थानेषु वर्तते खलु. तत्तु स्पष्टं खलु. इदानीम् इतोपि एकं सोपानम् उपरि गच्छामश्चेत्, जलं तु द्रव्यमस्ति, एकतमः जलम् इति अन्यतमः द्रव्यं खलु, अन्यतमं द्रव्यं. अतः एतासु नदीषु द्रव्यत्वम् अपि वर्तते. परन्तु द्रव्यत्वम् अपरेस्मिन् पदार्थेषु अपि, अपरस्मिन् द्रव्येषु अपि वर्तते खलु. द्रव्यत्वम् इत्युक्ते न केवलं जले, परन्तु पृथिव्याम्, आत्मनि, मनांसि, तत्र सर्वत्र वर्तते द्रव्यत्वं. यत् द्रव्यम् अस्ति तस्मिन् द्रव्यत्वं भवति. इदानीं सरसः दृष्ट्वा, इदानीं यत् पठितं भवत्या तस्य प्रतिपादनं करोतु. उदाहरणं स्वीकृत्य एव वदतु भगिनि.
द्रव्यत्वस्य जाति अपेक्षया न्यून अधिकरणानि, पृथ्वीत्व अपेक्षया अधिकानि. तत्र पृथ्वीत्वस्य अपेक्षया अधिकानि सन्ति, द्रव्यत्व अपेक्षया अधिकरणानि सन्ति.
एकनिमिषं भगिनि, अत्र न्यून अधिकरणं, कस्य न्यून अधिकरणं?
सत्तापेक्षया.
कस्य
न्यूनाधिकरणं? द्रव्यत्वस्य.
द्रव्यत्वस्य न्यून अधिकरणं खलु. यतोहि द्रव्यत्वस्य अधिकरणं केवलं द्रव्येषु एव, न तु कर्मसु वा गुणेषु खलु. परन्तु सत्तायाः अधिकरणं त्रिषु वर्तते. न द्रव्यत्वस्य अधिकरणं द्रव्यत्वस्य अपेक्षया पृथ्वीत्व अधिकरणम् अधिकं वा न्यूनं?
अधिकमस्ति. पृथ्वीत्वम् अधिकमस्ति. न्यूनाधिकरणं तु द्रव्यत्वस्य, पृथ्वीत्व अपेक्षया अधिकम् अस्ति.
कथं भगिनि? पृथ्वीत्व अपेक्षया द्रव्यत्वस्य अधिकानि
द्रव्यत्वस्य.
इदानीं द्रव्यत्वस्य विषये एव, सत्ता अपेक्षया द्रव्यत्वस्य न्यूनाधिकरणं,
पुनः
द्रव्यत्वस्य अधिकानि इत्युक्ते पृथ्वीत्व अपेक्षया अधिकानि द्रव्यत्वस्य अधिकरणं खलु, तत्तु स्पष्टम्. हा अग्रे पृथ्वीत्वं पृथिव्यामेव,
पृथिव्याम् एव द्रव्यत्वं तु जलादौ
अपि
अस्ति. जलादौ पृथ्वीत्वं पृथ्वीत्वम् एव तत्तु पृथ्वीत्वम् अस्ति. द्रव्यत्वं तु जलादौ पृथ्वीत्वौ द्वे अस्ति.
इदानीं वदतु अपरं किं, परं किम्?
सत्तापेक्षया अपरम् आम्, अतः द्रव्यत्वं सत्तापेक्षया अपरं तत्त्ववदनेन द्रव्यत्वं
कस्य अधिकरणानि अधिकानि?
जलादौ अधिकरणम् अस्ति, पृथ्वीत्वम् अस्ति.
तस्य अधिकरणानि अधिकानि, सा एव परा खलु?
तत्तु परा, अपरा तु
का परा भगिनि, इदानीं वदतु कस्य अधिकरणानि अधिकानि?
कस्य अधिकरणानि अधिकानि अधिकानि न परं परम् अधिकम् अधिकानि
खलु?
सत्ता सत्तापेक्षया न्यूनेषु वर्तते पृथ्वीत्व अपेक्षया परं पृथ्वीत्वपेक्षया परं अधिकेषु वर्तते.
अधिकेषु वर्तते. इदानीं सदाशिव महोदय,
द्रव्यत्वे अपरम् अस्ति, पृथ्वीत्वं पृथ्वीत्वे अपरम् अस्ति.
अस्तु भगिनि, समीचीनमेव. सदाशिव महोदय,
आम् अस्ति.
इदानीं द्रव्यत्वं पृथ्वीत्वं सत्ता एतत् सर्वं स्वीकृत्य किं परा किम् अपरा इति वदतु कृपया.
सत्ता सर्वेषु परा. सत्ता द्रव्यत्वं सत्ता अपेक्षया न्यूनाधिकरणम्. पृथिवीत्वं द्रव्या अपेक्षया न्यूनाधिकरणं. पृथिवी अपेक्षया द्रव्यत्वं परं. द्रव्यदृष्ट्या द्रव्य अपेक्षया सत्ता परं, परन्तु सत्ता सर्वेभ्यः परं.
समीचीनं, बहु समीचीनम्. अग्रे पठतु महोदय.
कुत्र घनत्व अपेक्षा एवं पृथिवीत्वं द्रव्यत्व अपेक्षया न्यूनवर्ति, घटत्व अपेक्षया अधिकवर्ति. घटत्वं पटे नास्ति तत्र पटत्वं वर्तते, पटत्वं घटे नास्ति तत्र घटत्वं वर्तते, परन्तु घटे पटे च पृथिवीत्वं वर्तते, अतः पृथिवीत्वं सत्ता द्रव्यात्वाभ्यां न्यूनवृत्ति अपरं, घटत्वपटत्वादिभ्यः अधिकवृत्ति परम्.
पृष्ठसङ्ख्या अस्ति द्वादश. वदतु महोदय कृपया.
अग्रे पठामि. पूर्वमेव वस्तुतः सत्ता अधिकरणं द्रव्यम् आदेयम्.
घटं पटं स्वीकृत्य वदतु कृपया.
परन्तु
घटं पटं स्वीकृत्य घटात् आरभ्य वदतु.
घटं पृथिवी आधारं, पृथिवी अधिकरणं घटम् आदेयं. घटदृष्ट्वा
एकनिमिषं महोदय महोदय महोदय, इदानीं घटे घटत्वं खलु,
घटत्वं
परन्तु घटत्वं कस्मिन् अन्तर्भूतम् अस्ति
पृथिवी पृथिव्याम् अन्तर्भूतः
घटः पृथिव्याम् अन्तर्भूतः अस्ति इति कृत्वा
अस्ति इति कृत्वा
तत्तु पार्थिवद्रव्यं तस्मिन् पृथिवीत्वम् अस्ति
पृथिवीत्वम् अस्ति सर्वे पृथिवीत्वम् अस्ति
घटत्व अपेक्षया पृथ्वीत्वं परं वा अपरं
परं 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 घटं न्यूनं नास्ति अपरम् अपरम्
अपरं अग्रे द्रव्यत्वं द्रव्यत्वं पृथ्वीत्वं तयोः
द्रव्यत्वं पृथ्वी अपेक्षया परं पृथ्वीत्वं द्रव्यम् अपेक्षया अपरं
समीचीनम्
द्रव्यं सत्ता उभयोः द्रव्यत्वं सत्ता अपेक्षया अपरं सत्ता द्रव्यत्वम् सत्ता द्रव्य अपेक्षया परं घट पृथिवी द्रव्यम् इति सर्वे सत्ता परम्
हा एतेषु सर्वेषु सत्ता एव परतमम् अस्ति परा अस्ति
सत्ता अपेक्षया सर्वं न्यूनमेव
हा समीचीनमेव अस्तु अत्र घटत्वपटत्वादिभ्यः अधिकवृत्ति परम् इत्युक्ते किं
घटत्व पृथिवीत्व घट पृथिवी
न अन्तिम अन्तिम अन्तिमा पङ्क्तिः भव महोदय
घटत्वादिजात्यापेक्षया न्यूनवृत्तिः जाति नास्ति इति घटत्वम् अपरजातिः इति उच्यते
न महोदय महोदय प्रथमे परिच्छेदे एव परन्तु घटे पटे च पृथ्वीत्वं वर्तते अतः पृथ्वीत्वं सत्तद्रव्यत्वाभ्यां न्यूनवृत्ति तत्तु अपरम् घटत्वपटत्वादिभ्यः अधिकवृत्ति परं किं परं तत्र
सत्ता इति परं पृथिवीत्वम् इति परं घटत्वपटत्वादिभ्यः अधिकवृत्ति पृथिवीभ्यः
समीचीनम् इदानीं स्पष्टं खलु प्रश्नः अस्ति वा कस्यचित्
भगिनी अहं नताशा अहं किमपि न आगतं पुनः एकवारं पुनः विस्तारेण वदतु स्पेशलि टर्म्स् लैक् न्यूनाधिकरण अपेक्षया वृत्ति पटः
अस्तु इदानीं मनसि एतत् चित्रं स्थापयतु भगिनि घटः अस्ति भवत्याः पुरतः घटः अस्ति घटे घटत्वम् इति जातिः अस्ति अस्तु इदानीं घटः इति पार्थिवद्रव्यं तत्तु वयं जानीमः पार्थिवद्रव्येषु पृथ्वीत्वम् इति जातिः वर्तते अतः घटे पृथ्वीत्वम् इति जातिः अपि अस्ति खलु हा परन्तु पृथ्वीत्वम् इति जातिः अन्येषु पार्थिवद्रव्येषु अपि वर्तते अतः घटत्वस्य अपेक्षया इत्युक्ते कम्पेर् टु घटत्वं घटत्वस्य अपेक्षया पृथ्वीत्वम् अधिकेषु वस्तुषु वर्तते खलु अतः पृथ्वीत्वं घटत्व अपेक्षया परं पृथ्वीत्वं परं यतोहि तस्य वृत्तित्वम् अधिकम् अस्ति
घटत्वम् अपेक्षया पृथ्वीत्वं वृत्ति परः इति
पृथ्वीत्वं परं
परम् आम्
अस्तु पुनः पृथ्वी पार्थिवद्रव्यं तु द्रव्यमेव खलु द्रव्यत्वम् इति जातिः वर्तते तस्मिन् घटे एव द्रव्यत्वम् इति जातिः अपि वर्तते परन्तु द्रव्यत्वं न केवलं घटे जले पटे तेजसि, एतेषु सर्वेषु अपि वर्तते द्रव्यत्वम्. अतः पृथ्वीत्वस्य अपेक्षया द्रव्यत्वं परम्, द्रव्यत्वस्य अपेक्षया पृथ्वीत्वम् अपरम्. सोपानि पश्यतु भगिनि, महोदय वदतु कृपया, प्रश्नः वा?
परम् अपरम् इन् वाट् सेन्स् यु मीन् इट्?
परम् इत्युक्ते सर्वे, सर्वं व्याप्नोति. सत्ता इति परा, परा अस्ति. किमर्थं? सर्वं व्याप्नोति खलु, न केवलं घटं, सर्वेस्मिन् वर्तते इति कृत्वा तत्तु अधिकतमं भवति, तस्य वृत्तिः अधिकतमा अस्ति. अवगतम्? It is present in the most objects, right?
Okay.
Tadeva para.
Okay.
Astu.
Aparam is exclusive.
Sarveshu vartate iti krutva sa para asti. Idani mavagatam va bhagini, Natasha bhagini?
Aparam means exclusive.
You can think of this as superset and subset.
Ityukte, yadi अहं वर्तुलं वर्णयामि चित्रे, इत्युक्ते कान्सेण्ट्रिक् सर्कल्स्, तत्र तु न्यूनं वर्तुलम् अस्ति, घटत्वम् इति खलु. तदनन्तरं पृथ्वीत्वं, तदनन्तरम् इतोपि अधिक देश वर्तुलम् अस्ति द्रव्यत्वम् इति. तदनन्तरं सत्ता सर्वं व्याप्नोति, सर्वान् वर्तुला, सर्वाणि वर्तुलानि व्याप्नोति सत्ता खलु. कान्सेण्ट्रिक् सर्कल्स्, द बिग्गेस्ट् वन् इस् सत्ता खलु. आम् आम्. अस्तु अग्रे. पटः इत्युक्ते क्लात् महोदय. अस्तु अग्रे सीमा भगिनी कृपया पठतु.
घटत्वादि जात्यपेक्षया न्यूनवर्तिः जातिः नास्ति इति घटत्वम् अपरजातिः इति उच्यते. सर्वम् एतद् बुद्धौ निधाय मूले उक्तं परम् अपरं चेति द्विधं सामान्यं, परं सत्ता अपरं पटत्वादि पृथ्वीत्वादि परापरम् इति तदर्थः. एतत् पर्यन्तं भगिनि?
आम् आं भगिनि.
ओके. घटत्वपटत्व इत्यादि जात्यः न्यूनतम वर्तिनि ्यः सन्ति, अतः ते अपरा जातयः सन्ति. ताः अपरा जातयः सन्ति. तत् सर्वं मनसि स्थापयित्वा मूले उक्तं परम् अपरं च द्विविधं सामान्यम् इत्युक्ते सामान्यस्य सामान्यस्य द्वे सामान्ये स्तः परम् अपरं च. सत्तायाः सामान्यं परं भवति, पटत्वादि घटत्वादि सामान्यम् अपरं सदैव भवति, किन्तु पृथ्वीत्वादि सामान्यं पर अथवा अपर भवितुम् अर्हति. घटत्वाद्यपेक्षया पृथ्वीत्वादि सामान्यं परमस्ति, किन्तु सत्तायाः अपेक्षया पृथ्वीत्व पृथ्वीत्वादि सामान्यम् अपरम् अस्ति.
समीचीनं, बहु समीचीनं भगिनि. अस्तु, एतत् सर्वं स्पष्टम् इति मन्ये.
आं भगिनि, इदानीं बहु स्पष्टमस्ति.
अस्तु, उत्तमम्. अग्रे नताशा भगिनि, कृपया.
आं भगिनि, नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव इति विशेषः निरूपितः. गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः नाङ्गीकुर्वन्ति इत्युक्तम्. विशेषविषये इत्थं वक्तव्यम्, अयं वैशेषिकैरेव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते, अन्येषु शास्त्रेषु तस्य खण्डनम् एव अस्ति. एवं विधोऽयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. भगिनी, अहम्
इदानीं नूतनविचारः विशेषः इति पदार्थं पश्यामः. वदतु भगिनि.
भगिनी, अहं न कर्तुं शक्नोमि.
न, चिन्ता मास्तु भगिनि, अहं सहायं करोमि. वदतु. तत्र शीर्षक उपशीर्षकः कः? नित्यद्रव्यवृत्तयो
विशेष विशेषास्त्वनन्ता एव.
इत्युक्ते विशेषः इति कश्चन पदार्थः अस्ति, सः पदार्थः अनन्तः अस्ति.
अनन्तः
कुत्र भवति? नित्यद्रव्येषु वर्तते इति.
नित्यद्रव्येषु विशेष विशेष इति नाम पदार्थः सन्ति. एतत् पदार्थः अनन्त इति.
हा, समीचीनम्. अग्रे गुणकर्मणोः निरूपणावसरे. वदतु भगिनि.
गुणकर्मणोः निरूपणावसरे
पौर्वापर्यविचारे इत्युक्ते पूर्वापरं पूर्वापर्यम् इति भावः इत्युक्ते यत् पूर्वस्मिन् पृष्ठे इत्युक्ते पृष्ठसङ्ख्या सप्तमे पुटे कर्मविषये दृष्टम् अस्माभिः. तत्र कर्मविषये कश्चन विवादः भवति इति अपि दृष्टः खलु अस्माभिः. इत्युक्ते केचन
दार्शनिकाः कर्म न अङ्गीकुर्वन्ति
इति. तदर्थमेव गुणस्य अनन्तरं कर्मणः चर्चा जाता. तदेव अत्रापि अत्र इदानीं विशेषविषये इत्थं वक्तव्यम्. केवलं वदन्ति यत् पूर्वं यत् उक्तं कर्मविषये तत् यत्र विवादः आसीत् इत्थमेव विशेषविषये अपि कश्चन विवादः भवति इति.
एतादृशी विवादम् अस्ति इति.
अस्ति. अग्रे पठतु भगिनि.
अयं वैशेषिकैरेव अङ्गीक्रियते, नैयायिके च अनुमन्यते. वैशेषिक आचार्याः विशेषः इति पदार्थः अङ्गीक्रियते, नैयायिके च अनुमन्यते. नैयायिकाः कणादः वैशेषिका शास्त्रप्रणेता आचार्यः तत् प्रणीतं वैशेषिकशास्त्रं गौतमप्रणीतं न्यायशास्त्रं च सम्मील्य न्यायशास्त्रपाठनं प्रवर्त तति इति. अत्र वैशेषिक आचार्यः विशेष इति पदार्थः अङ्गीक्रियते, नैयायिकाः अपि अङ्गीक्रियते इति. अन्येषु शास्त्रेषु तस्य खण्डनम् एव अस्ति. अन्यशास्त्राः विशेषः इति पदार्थः खण्डनं क्रियते इति.
इत्युक्ते ते न अङ्गीकुर्वन्ति.
न अङ्गीकुर्वन्ति. एवं विधोऽयं विशेषपदार्थः इति सर्वजनसिद्धजाति पदार्थानन्तरं निरूपितः. विशेषपदार्थः इति सर्वजनसिद्धजाति. भगिनी आवश्यकं
जातिः. जातिः इति सर्वैः अङ्गीक्रियते खलु. अतः एव यस्मिन् विवादः भवति तस्य चर्चा अनन्तरं जायते. जातेः अनन्तरं विशेषः इत्यस्य पदार्थस्य चर्चा भवति, यतोहि तस्मिन् विषये विवादः भवति.
अन्यशास्त्राः विशेषपदार्थः जाति अनन्तरं अङ्गीकुर्वन्ति इति.
न न, इदानीम् अस्मिन् पुस्तके अनेन
पुस्तके
अस्मिन् पुस्तके विशेषः इति पदार्थस्य निरूपणं जातेः अनन्तरम् एव भवति.
अनन्तरम् आम्
अस्तु. स्पष्टं?
हा आं, धन्यवादः भगिनि.
अस्तु, अग्रे रामनाथमहोदय पठति वा?
आं भगिनि, उदाहरणेन विशेषपदार्थवर्णनं एतत् साधनाय साम्प्रदायिकाः एवम् अहुः. एकः पाषाणः द्विधा खण्डितः. तयोः शक्लयोः ख एवं ख इति कन्या कृता. ततः कषाकलस्य द्वे शकले साधिते. तयोः क्रमेण घ एवं घ इति संज्ञे कृते.
हा, वदतु महोदय तावत्पर्यन्तं कृपया. निरूपणम् इत्युक्ते उदाहरणं स्वीकृत्य विशेषः इति पदार्थस्य निरूपणं भवति. इदानीं पाषाणः इत्युक्ते किम्? शिलाखण्डः इति चिन्तयतु.
पाषाणं बेसिकलि लिक्विड्
न न, शिलाखण्डः.
ओ, शिलाखण्डः, सारि,
शिला इति.
द्विविधा खण्डितः.
तस्य खण्डनं भवति द्विविधा.
शक्लयोः
तत्र
डिविशन्
महोदय. तयोः शकलयोः क एवं ख इत्युक्ते किम्? हा, शकले द्वे खलु. इदानीं एकं पाषाणं स्वीकृत्य तस्य खण्डनं द्विविधा भवति चेत् एकं शकलं क, अन्यत् शकलं तदनन्तरं ख इति शकलस्य पुनः द्विविधा क्रियते. चित्रं दृष्ट्वा वदतु महोदय, ख इत्यस्य भागद्वयं वा खण्डनद्वयं भवति ग अपि तु घ खलु खण्डः पुनः घ खण्डः इति भवति अस्तु अग्रे प्रिया भगिनी भवती पठति वा
प्रयत्नं करोमि भगिनि
न शक्यं चेत् नो चेत् आग्रहः नास्ति
किञ्चित् अहं प्रयत्नं करोमि तदनन्तरं निश्चयं करोमि
अस्तु 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 तर्हि अहं पङ्क्तिद्वयं पठतु केवलम् अस्तु तयोरपि
तयोरपि शकलम् एकमादय द्वे
शकलं गृहीत्वा तयोरपि तृतीयपङ्क्तिः
अस्तु 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 तयोरपि गशकलं गृहीत्वा तस्य द्वे शकले तयोरपि शकलम् एकमादाय द्वे शकले इति एवंविध परम्परा कुत्रचित् स्थगनीया को अर्थः इदानीम् एकः पाषाणः अस्ति तत्र खण्डनं कर्तुं शक्यते चेत् द्वे शकलाः न शकलौ
द्वे शकले
द्वे शकले अस्तु द्वे शकले स्तः तत्र एकशकल ख इति स्वीकृत्य अन्यत् ख शकलमिति इदानीं ख शकलं पुनः खण्डनं करोति चेत् तत् घ घ भवति घ शकलस्य पुनः खण्डनं करोति तत् चित्रं दृष्ट्वा च छ भवति अनन्तरं छ शकलस्य पुनः खण्डनं करोति चेत् तत् थ भवति शकलः
समीचीनं
तत् एव एक
समीचीनं
हैरार्कि भवति
आम् आं क्रमशः खण्डनं कृत्वा कृत्वा किं भवति इति पश्येम अग्रे धन्यवादः भगिनि पुष्पा भगिनी पठति वा को अर्थः इति आरभ्य भगिनी अस्ति वा सदाशिवमहोदय
एतत् परम् अप
सदाशिवमहोदय
आम् अस्तु
को अर्थः
को अर्थः अहं नावगच्छामि
कुत्र कुत्र अस्ति इति न जानाति अस्तु पृष्ठसङ्ख्या
द्वादश
एक अन्तिमपङ्क्ति न तस्मात् प्राक् को अर्थः इति अस्ति
द्वयोरपि क्रमेण द्वयोरपि दशकलं गृहीत्वा तस्य द्वे शकले तदरपि द्वेशकले को अर्थः द्वे शकले इति एवंविध शकलपरम्परा कुत्रचित् स्थगनीया को अर्थः एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति तच् चरमं शकलमेव परमाणुः इत्युच्यते पाषाणः उदाहरणे खण्डनं कृत्वा अन्तिम शकलं तस्य परं शकलं न भवति तत् स्थाने अवशिष्य वस्तुः परमाणुः इति उच्यते.
बहु समीचीनं. यस्य खण्डनम् अग्रे अग्रिमखण्डनमेव न शक्यम् अस्ति तदेव परमाणुः इति उच्यते. अग्रे पठतु महोदय.
तत्र क सम्यकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. क सम्यकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्न इति वयं ज्ञातुं प्रभवामः. इति ज्ञातुं शक्यते कुतः? तस्य यौ अवयवौ घ ग घ ताभ्यां ख एव उत्पन्नः. अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गतौ. तस्मिन् उदाहरणे गौ गौ तस्मिन् उदाहरणे गापाषाणः भिन्नः छ छ भवति. छ पाषाणः भवतः. सो गपाषाणः चस्मिन् भवति. परन्तु
क पाषाणः यदस्ति प्रथमे भागे कोशकस्य प्रथमे भागे क पाषाणस्य अवयवाः
अवयवभाषा अत्र न दत्तं न. ख पाषाणः क पाषाणः अवयवाः घ घ ख पाषाणः अवयवः अवयवौ ख पाषाणस्य अवयवः न दत्तं न. क पाषाणः अवयवः ग घ
तदेव. क पाषाणस्य अवयवौ ग घ पुनः ग पाषाणस्य अवयवौ
च छ पाषाणः अवयवः थ ठ.
समीचीनम्. अतः एताभ्याम् अवयवाभ्यां ख भवति. ख उत्पन्नः जातः. पुनः च अवयवाभ्यां ग पाषाणः भवति. पुनः त थ एताभ्यां च पाषाणः भवति इति अस्ति. स्पष्टम्?
स्पष्टं भाव स्पष्टम्
अस्तु. प्रश्नः नास्ति चेत् अग्रे सरेम. प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अस्तु. सीमा भगिनी, पुष्पा भगिनी नास्ति वा भगिनी? भगिनी वद. न न, पुष्पा भगिनी प्रायः
अस्मि अस्मि अस्मि.
किमर्थं न पठितं भवत्या?
एक पञ्चनिमिष निद्रा आगच्छति.
अस्तु भगिनि, न न न, शृणोतु तर्हि. सीमा भगिनी कृपया.
अस्तु. एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः. कथं? प्रत्येकम् अवयवभेदेन. तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. परन्तु चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशम् एव यत् अन्यत् शकलं परमाणुः तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः
तावत्पर्यन्तं भगिनि कृपया.
अस्तु अस्तु. पाषाणां विषये एकपाषाणः परस्मात् पाषाणात् भिन्नम् अस्ति. तद् वयं तेषाम् अवयवभेदेन ज्ञातुं शक्नुमः. यतः एकस्य पाषाणस्य अवयवाः परस्मात् पाषाणात् अवयवेभ्यः भिन्नाः सन्ति. किन्तु
समीचीनं.
यस्य अवयवाः न यस्य अवयवाः न सन्ति यथा परमाणोः तस्य अपरस्मिन् परमाणात् भेदज्ञानं कथं भवेत् तत् सः प्रश्नः अस्ति.
समीचीनम् समीचीनतया उक्तं भगिनी. इत्युक्ते कपाषाणः गपाषाण पाषाणात् कथं भिद्यते इत्युक्ते अवयवेभ्यः भिद्यते इत्युक्ते गपाषाणस्य अवयवौ च च यौ स्तः तेभ्यः भिन्नौ ग घ पाषाणौ इति कृत्वा तयोः भेदः स्थाप्यते. अतः अवयवान् दृष्ट्वा एकः पाषाणः अन्यस्मात् भिन्नः इति वक्तुं शक्नुमः. परन्तु अन्तिमे स्तरे परमाणौ यौ स्तः तेषां खण्डनम् इतोपि न भवितुम् अर्हति इति कृत्वा तेषाम् अवयवौ एव न सन्ति, तेषाम् अवयवाः एव न सन्ति. अतः अन्तिमे स्तरे कथं परमाणोः भेदः वयं स्थापयितुं शक्नुमः इति प्रश्नः. समीचीनं भगिनि. अग्रे नताशा भगिनि पठति वा?
आं भगिनि.
अतः
अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः. एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः. तथा च एतत्पर्यन्तं भगिनि?
हा हा तावत्पर्यन्तम्. अग्रे चित्रम् अपि वर्णयतु तदनन्तरं.
तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः तादृशज्ञानसम्पादनाय कथं किं पाषाणस्य परमाणुः इति कथं भेदं कर्तुं शक्नुमः? एतत् सम्पादनाय कणादमहर्षि विशेष इति पदार्थः स्वीकृतः. एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः.
तत्र चित्रं त्रिश्चित्रं दृष्ट्वा वदतु भगिनि, सुलभः भवति इति मन्ये. इत्युक्ते च परमाणुः अस्ति, च परमाणुः
च परमाणुः च परमाणुः च परमाणुः त विशेषः इति च परमाणुः त विशेषः
इत्युक्ते च परमाणौ त इति विशेषः भवति. च परमाणौ थ इति विशेषः भवति.
विशेषः भवति. एते च विशेषाः.
अत्र किम् अधिकरणं किम् आदयः?
किम् अधिकरणं विशेषः अधिकरणं विशेषः अधिकरणं परमाणुः आदयः.
एवं चिन्तयतु भगिनी. पाषाणात् अन्तिमे स्तरे अन्ततो गत्वा परमाणुः लभ्यते खलु.
परमाणुः आम् आम्
परमाणौ विशेषः अस्ति. विशेषः इति कश्चन पदार्थः अस्ति परमाणौ. येन येन च परमाणुः च परमाणोः विद्यते खलु. अतः तस्मिन् अस्ति विशेषः परमाणौ अस्ति इति कृत्वा सः आदेयः खलु. विशेषः आदेयः परमाणुः अधिकरणम्
अधिकरणः
अधिकरणम् अस्तु वदतु भगिनि. विशेषः यावन्तः
एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. अहं मन्ये विशेषाः यावन्त परमाणवः विशेषस्य
विशेषः इति कश्चन पदार्थः भगिनि.
तत् कश्चन पदार्थः
इत्युक्ते यावन्तः परमाणवः सन्ति तावन्तः विशेषाः सन्ति. अत्र अस्मिन् चित्रे च परमाणुः च परमाणुः इति द्वौ स्तः. अतः द्वौ विशेषौ. परन्तु विश्वे बहवः परमाणवः सन्ति खलु. तावन्तः विशेषाः अपि सन्ति. प्रत्येकं
यावन्तः शब्दस्य अर्थं किम्?
यावन् अस्तु यावत् शक्तिः अस्ति मम यावत् शक्तिः अस्ति तावत् वदामि.
यावन्तः
यावन्तः इति पुल्लिङ्गपदं बहुवचने.
तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते.
इत्युक्ते विशेषाः तावत् सङ्ख्याकाः सन्ति इत्युक्ते
यावत् परमाणः
एककोटि
विशेषः
एककोटि परमाणवः चेत् एककोटिविशेषाः सन्ति. कोटि अस्तु.
यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते. यथा प्रत्येक आत्मनः एकः आत्मनः एकः मनः एकः आत्मः एकः मने एकः मन इति निरूप्यते. तथैव तादृशी प्रत्येकं परमाणुः विशेषः पदार्थः सन्ति इति.
हा समीचीनम्. अग्रे अपि पठतु भगिनि.
आम् आम् च परमाणुः च परमाणुतः भिन्नः कुतः त विशेषस्य स एव आश्रयः न तु च परमाणुः एवं विपरीतमपि ज्ञातव्यम्. अत्र च परमाणु च परमाणुतः भिन्नः किमर्थमिति त विशेषस्य स एव आश्रयः च परमाणुः आश्रयः अथवा अधिकरणम् अस्ति त विशेषः पदार्थस्य न तु च परमाणुः इति. एवं विपरीतम् इति ज्ञातव्यम्. तथा च
आश्रयम् अधिकृत्य
हा
वदतु भगिनि.
तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः इति यदि वयं विशेषः इति पदार्थः स्वीकुर्मः तथैव वयं परमाणूनां भेदज्ञानं सम्पादयितुं शक्यते इति.
हा समीचीनम्. इत्युक्ते यत्र यत्र यस्य अवयवाः न सन्ति तस्मिन् स्तरे एकस्य ज्ञानम् अपरात् कथं भिद्यते इत्युक्ते विशेषस्य ज्ञानेन एव भिद्यते. विशेषः तस्मिन् कः विशेषः कीदृशः विशेषः भवति इति ज्ञात्वा एव एकः परमाणुः अन्यस्मात् भिन्नः भवति इति वयं ज्ञातुं शक्नुमः. स्पष्टम्?
आम्.
अस्तु, प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अस्तु, प्रश्नः नास्ति चेत् अग्रे रामनाथ महोदय.
भगिनि अहम् अस्मि अस्मि भगिनि इदानीम्
अस्तु अपरस्मिन्
अस्तु
पुटे स्मः. आम्, यथा भगिनि.
अहमेव वदामि.
यथा परमाणोः
अवयवो नास्ति तथैव अवयवः नास्ति तथैव आकाशादिद्रव्याणाम् अपि अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय आकाशादावपि विशेषापेक्षा वर्तते.
वदतु भगिनि कृपया.
यथा परमाणोः अवयवः नास्ति तथैव आकाशादिद्रव्याणाम् अपि अवयवाः न सन्ति. तत्वदनेन परमाणुषु अवयवः नास्ति अस्ति. तथैव आकाशादिद्रव्याणाम् अपि अवयवाः न सन्ति. ओके, अस्तु. अतः परस्परभेदज्ञानाय आकाशादौ वा इति आकाशादौ अपि विशेष अपेक्षा अस्ति वर्तते. तत्तु परस्पर भेदज्ञानं परमाणुषु परस्परभेदज्ञानं ज्ञानाय आकाशादौ विशेष अपेक्षा वर्तते.
इत्युक्ते वयं पूर्वं दृष्टवन्तः यत् द्रव्येभ्यः कथं भेदः ज्ञायते इत्युक्ते गोत्वं गोषु वर्तते, अतः गोः पुस्तकात् भिन्नः, यतोहि पुस्तके गोत्वं नास्ति. तथैव जातिम् अवलम्ब्य एव एकं द्रव्यम् अपरस्मात् भिन्नं वा एकः गुणः अपरस्मात् भिन्नः इति वयं वक्तुं शक्नुमः. परन्तु तादृशी स्थितिः पृथ्वी जलं तेजः वायुः तावत्पर्यन्तं जातिम् अवलम्ब्य वयं वक्तुं शक्नुमः एकः अपरस्मात् भिन्नः इति. परन्तु आकाशः कालः दिक् आत्मा मनः तेषु भेदः कथं संस्थाप्यते? विशेषम् अवलम्ब्य एव, यतोहि आकाशादयः नित्याः. आकाशादयः इत्युक्ते आकाशकाल दिक् आत्मा मनः. एतानि सर्वाणि द्रव्याणि नित्यानि द्रव्याणि इत्युक्ते तेषाम् उत्पन्नः वा नाशः न जातः एव इति कृत्वा तानि नित्यानि द्रव्याणि इति उच्यन्ते. नित्यद्रव्याणामपि विशेषः अस्ति. विशेषेण एव तेषां भेदः अवगम्यते. यथा बहुषु गोषु गोत्वं भवति, तेषां सादृश्यं भवति इति वयं दृष्टवन्तः. परन्तु आकाशः एक एव, दिक् तु एकः एव, कालः अपि एकः एव. अतः नित्यद्रव्याणाम् एकत्वम् अस्ति इति कृत्वा तेषु विशेषः इति पदार्थः एव वर्तते. विशेषेण एव भिद्यते. सर्वेषु विशेषः वर्तते. सर्वेषु इत्युक्ते सर्वेषु नित्यद्रव्येषु विशेषः वर्तते. यथा परमाणुषु विशेषः वर्तते. यथा वयं परमाणुभ्यः भेदः ज्ञातुं शक्यते विशेषम् अवलम्ब्य, तथैव नित्यद्रव्येभ्यः द्रव्येषु एव तेषां मध्ये भेदः विशेषम् अवलम्ब्य एव ज्ञातुं शक्यते. स्पष्टं वा? अतः विशेषः कुत्र कुत्र वर्तते रामनाथ महोदय?
क्षम्यतां महोदय.
आम् आं वदतु महोदय.
आकाशे कः विशेषः? शब्दः इति विशेषः वा?
न, शब्दः इति गुणः अस्ति. परन्तु इदानीं जातिः इति धर्मः इति वयं दृष्टवन्तः खलु. कश्चन धर्मः अस्ति तस्मिन् द्रव्येस्मिन् वा गुणेस्मिन् वा कर्मणि. तादृशम् आकाशे अपि कश्चन धर्मः वर्तते,
आकाशत्वम् इति.
परन्तु आकाशत्वम् इति न उच्यते. इत्युक्ते आकाशत्वम् इति वदामश्चेत् आकाशत्वम् अन्यत्र अपि अस्ति इति भाति, परन्तु तादृशं न खलु, यतोहि आकाशः एकः एव. अतः आकाशे विशेषः अस्ति इति वयं
एकः एव पदार्थे कथं विशेषः भवितुम् अर्हति?
विशेषः इत्युक्ते किं? सम् पेक्युलियारिटि इति.
पेक्युलियारिटि
इति तस्मिन्नेव वर्तते, अन्यत्र कुत्रापि न वर्तते इति. स्पष्टं रामनाथ महोदय, अग्रे पठति वा? नास्ति वा? अस्तु, सदाशिव महोदय कृपया. भवान् पठितवान् वा? न खलु.
पठामि.
आम्,
कुत्र?
परमाणुः नित्यः.
परमाणुः नित्यः आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत् सर्वम् अभिसन्दयोक्तं नित्यद्रव्यवृत्तयोः विशेषाः. नित्यद्रव्यवृत्तयोः विशेषाः अनन्ताः परमाणवः नित्यद्रव्याणि च. अनन्ताः परमाणवः नित्यद्रव्याणि च तावन्तः विशेषाः इति तेषाम् अनन्त्यमपि सिद्ध्यति. अनन्तत्वम् इस् देर्, अनन्त्यमपि सिद्ध्यति. परमाणुः नित्यः, आकाशः अपि, आकाशः
दिक्
कालः मनः सर्वेषां सर्वेभ्यः नित्याः, सर्वाः नित्याः इति. नित्येषु सर्वेषु नित्येषु द्रव्येषु विशेषः इति वर्तते इति एतत् सर्वं अभिसन्दयोक्तम् अभिसन्दयोक्तम् इति
अभिसन्दाय इत्युक्ते सर्वं विस्तरेण दृष्ट्वा चिन्तनं कृत्वा
नित्यद्रव्यवृत्तयोः विशेषाः नित्यद्रव्यवृत्तयोः विशेषाः सर्वेषु
नित्यद्रव्यवृत्तयः विशेषाः इति
विशेषाः परमाणवः अनन्तः परमाणवः अनन्ताः नित्यद्रव्याणि अपि अनन्ताः न न नित्यद्रव्याणि अपि नित्य
तत्र तु नित्यद्रव्यवृत्तयः विशेषाः अत्र केवलं परमाणवः अनन्ताः नित्यद्रव्याणि च
नित्यद्रव्याणि दृष्ट्या परमाणवः अनन्ताः अस्तु अस्तु तावन्तः विशेषाः इति तेषाम् अनन्तम् इति सिद्ध्यति द्रव्य
परमाणवः अनन्ताः नित्यद्रव्येषु अपि विशेषः अस्ति इति कृत्वा विशेषाः अनन्ताः इति उच्यन्ते
विशेषाः अनन्ताः
तत्र एकः विषयः अस्ति विशेषः परमाणुषु वर्तते अपि तु नित्यद्रव्येषु वर्तते तर्हि एकः विशेषः अन्यस्मात् कथं भिद्यते इति चेत् तस्मिन् स्वस्थो व्यावकर्त्वम् इति कश्चन इति कश्चन वर्तते इत्युक्ते स्वस्य भेदं स्वयम् एव स्थापयति इत्युक्ते आकाशे विद्यमानः विशेषः स्वयं तस्य भेदं स्थापयति इति तस्य नाम अस्ति स्वस्थो व्यावकर्त्वं स्वेन एव तस्य व्यावकर्त्वं भवति अस्तु स्पष्टं चेत् अग्रे सरेम सीमा भगिनि
समवायसाधनप्रकारः द्रव्यातित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ ततः समवायं निरूपयति समवायस्त्वेक एव इति इत्थं हि समवायसाधनम् आहुः कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः ततः पुरुषस्य नमस्कारेच्छा भवति ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते एवं च पूर्वं विवक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः अग्रे पठामि न वा
तावत्पर्यन्तं भगिनि कृपया
समवायः एकः पदार्थः अस्ति तस्य साधनप्रकारः इदानीं विवृणुते द्रव्यगुणकर्म सामान्यविशेषः एताः निरूपिताः अत्र समवायस्य लक्षणं दत्तं नपुंसकलिङ्गे अस्ति
लक्षणवाक्यमेव एतत्तु मूलग्रन्थात् अस्ति मूलग्रन्थात् वाक्यं
नाम दत्तं समवायः तु एक एव इति
अग्रे अग्रे पश्येम कथम् एकः इति पठतु भगिनि
समवायस्य साधनम् अत्र दीयते कस्यचित् पुरुषस्य हस्तौ द्वौ स्वस्थाने स्तः पश्चात् पुरुषः नमस्कारं कर्तुम् इच्छति तया इच्छया सः
हस्तयोः क्रियया इत्युक्ते हस्तयोः कर्मेण हस्तयोः संयोगः उत्पद्यते. अतः पूर्वं तौ हस्तौ भिन्नौ स्तः, पश्चात् क्रियया तौ हस्तौ संयुक्तौ भवतः.
इदानीं कश्चन कञ्चन उदाहरणं स्वीकृत्य समवायः इत्युक्ते किम् इति विवृणोति लेखकः. अत्र संयोगः इत्युक्ते यदा एकस्मिन् समये भिन्नौ स्तः हस्तौ, अपरस्मिन् क्षणे तयोः संयोगः भवति इति काचन स्थितिः. अस्तु, अग्रे पठतु भगिनि.
ओके. परन्तु घटोत्पत्तिः यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम् उभयोः अपि सम्बन्धः घटस्य तद् रूपस्य अपि च एवम् एव चिन्तनीयम्. किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते? बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते? एकस्मिन् हृदे घटः पतितः, घटः हृदतलं गतः,
घटतलं
घटः रदतलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्?
एकमेकं स्वीकृत्य.
अत्र संयोगात् पश्चात् समवायस्य विषये दत्तम् उदाहरणानि दत्तानि सन्ति. यथा घटोत्पत्तिः कपालद्वयेन कपालद्वयसंयोगेन भवति. उत्पत्तिपश्चात्
कपालः इत्युक्ते कुलालः प्रथमं कपालः इति कमपि निर्माणं कृत्वा, तस्य निर्माणं कृत्वा एव घटस्य निर्माणं करोति. चक्रे कपालं निर्माति, कपालद्वयं निर्माति तयोः संयोगेन, इत्युक्ते मृद् इत्यादि तत्र लेपनं, तस्य लेपनं कृत्वा घटं निर्माति.
अतः कपाल द्वयसंयोगेन घटः भवति. किन्तु घटः अन्यत्र भवति, कपाले अन्यत्र स्तः, एतत् भवितुं न अर्हति. अतः घटस्य कपालद्वयेन किञ्चित् सम्बन्धः अस्ति, यतः ते सर्वदा टुगेदर् सर्वदा संयुक्तौ
संयुक्तौ स्तः खलु.
संयुक्तौ
घटः इति यदा भवति, घटे कपालद्वयं सर्वदा संयोगेन एव भवति, न तु कपालः एकस्मिन् क्षेत्रे, घटः अपरस्मिन् क्षेत्रे.
तथैव घटस्य रूपस्य एव अपि एवमेव अस्ति. घटं विहाय रूपम् अन्यत्र न भवति, घटरूप अन्यत्र न भवति. अतः घटः एवं घटरूपं
नित्यसम्बद्धं भवति.
बहु समीचीनम्. इत्युक्ते नीलः घटः इत्युक्ते नीलत्वं वा नीलरूपं सर्वदा घटे एव अस्ति खलु. तस्य पृथक्करणम् अशक्यम्.
एवमेव क्रिया कर्ताविषये अपि अस्ति. बिलस्य मुखे सर्पः वर्तते. तस्य सर्पस्य क्रिया प्रसर्पण अस्ति. सा क्रिया सर्पेण विहाय न भवति. अतः तयोः अपि सम्बन्धः कश्चन सम्बन्धः अस्ति. एवमेव सामान्यस्य विषये अपि अस्ति. यथा घटः एकः घटः नीत्वा यदि सः घटः हृदये पतति पतति तस्य घटस्य जातिः घटत्वं जलो उपरि भवितुं न अर्हति. अतः घटेन सह घटत्वं भवति एव.
बहु समीचीनम्. अग्रिम चत्वारि वाक्यानि समापयामः. नताशा भगिनी पठति वा?
आं भगिनि. सर्वेषां प्रश्नानां न इत्येव समाधानम्. अतः घटस्य कपालं विहाय रूपस्य घटं विहाय प्रसर्पणस्य सर्पमविहाय घटत्वस्य घटमविहाय कदाचित् अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः. कुतः पूर्वं प्राप्तयोः विविक्तयोः या प्राप्तिः सा संयोग इत्युच्यते. घटत्वं तु चलरूपी तरति इति द्रष्टुं वा केनचित्. सर्वेषां प्रश्नानां न इत्येव समाधानम्. अतः एतस्मिन् प्रश्नः न प्रश्नानां न इत्येव समाधानम्. अतः घटस्य कपालम् अर्थं घटस्य अवयवः विहाय रूपस्य घटं विहाय रूपस्य अपि घटं गुणः प्रसर्पणस्य सर्पं विहाय प्रसर्पणस्य सर्पः क्रिया घटत्वस्य घटं विहाय घटत्वं घटः गुणः. कदाचित् अपि
घटत्वम् इति सामान्यं खलु. घटत्वम् इति सामान्यम् इत्युक्ते अत्र कीदृशस्थितयः सन्ति. प्रथमे तु अवयवः अवयविनं विहाय न तिष्ठति. रूपं वा गुणः घटम् अत्र रूपं घटं विहाय न तिष्ठति. प्रसर्पणक्रिया
सर्पं विहाय न तिष्ठति.
पुनः सामान्यं पदार्थं विहाय न तिष्ठति. इत्यादयः स्थितयः सन्ति. इत्युक्ते कश्चन सम्बन्धः वर्तते तयोः मध्ये अवयवः अवयविनोः मध्ये. पुनः गुणः गुणिनोः मध्ये खलु.
गुणः गुणिनो. आम्.
गुणिनोः मध्ये पुनः क्रिया
क्रिया कर्ता
कर्ता हा समीचीनम् अपि तु व्यक्तिजातयोः मध्ये व्यक्तिः इत्युक्ते विशिष्टः व्यक्तिः इति व्यक्तिजातयोः मध्ये अपि कश्चन सम्बन्धः वर्तते स च सम्बन्धः संयोगः भवति वा यथा अस्माभिः दृष्टं यत् हस्तौ पूर्वं भिन्नौ स्तः विविक्तौ स्तः इदानीं तु तयोः मेलनम् अभवत् नमस्काररूपेण परन्तु एतासु स्थितिषु तादृशः सम्बन्धः न भवति येन एकस्मिन् समये पृथक् स्तः अपरस्मिन् समये द्वयोः मेलनं भवति तादृशी स्थितिः न भवति एव अतः कश्चन विशिष्टः सम्बन्धः वर्तते एतासु स्थितिषु स्पष्टम् अग्रे अग्रिमे सप्ताहे वयं द्रक्ष्यामः कीदृशः सम्बन्धः अयम् इति वयं पश्येम एतावत्पर्यन्तं प्रश्नः अस्ति वा
भगिनी एकः प्रश्नः अस्ति
आम् आं भगिनि
विशेषः परमाणौ कथं तिष्ठति समवायेन वा किञ्चित् अन्य
समवायेन एव भगिनि समवायेन एव
अस्तु अस्तु
तस्य पृथक्करणं न शक्यमेव असम्भवः खलु इत्युक्ते केवलं विशेषः अपि जातिसदृशः जातिसदृशी एव केवलं तस्य नाम तस्य नामकरणं भिन्नम् अस्ति विशेषः इति यतोहि विशेषः तु एकः नियतरूपेण आकाशस्य एकः विशेषः आत्मनः अपरः विशेषः इति
चित्रे अपि दत्तम् अस्ति पश्चात् दृष्टवती
आम् कोष्ठे अस्ति खलु नित्यद्रव्याणा द्रव्येषु विशेषाः सन्ति इति समवायसम्बन्धेनैव अस्तु अग्रे प्रश्नः अस्ति वा प्रिया भगिनी अवगतं वा सर्वं हरि ओम्